कलितान्योन्यसामर्थ्यैः पृथिव्याधिभिरात्मभिः येनेदं ध्रियते विश्वं धुर्यैर्यानमिवाध्वनि
कलितेति येन शम्भुना कलितं धृतिसङ्ग्रहादि स्वस्वगुणसम्पादितम् अन्योन्यसामर्थ्यम् परस्परसहकाररूपम् यैः तथोक्तैः स्वस्वरूपसामर्थ्यम् अन्योन्याधेयमेवेति भावः पृथिव्यादिभिः आत्मभिः अष्टाभिः मूर्तिभिरित्यर्थः इदम् व्यक्तम् विश्वम् धुरम् वहन्तीति धुर्यैः अश्वैः धुरो यड्ढकौ इति यत्प्रत्ययः अध्वनि यानम् रथ इव ध्रियते
योगिनोऽयम् विचिन्वन्ति क्षेत्राभ्यन्तरवर्तिनम् अनावृत्तिभयम् यस्य पदमाहुर्मनीषिणः
योगिन इति योगिनः अध्यात्मवेदिनः क्षेत्राभ्यन्तरवर्तिनम् शरीरान्तश्चरम् सर्वभूतान्तर्यामिणम् परमात्मस्वरूपिणमित्यर्थः क्षेत्रम् पत्नीशरीरयोः इत्यमरः यम् शम्भुम् विचिन्वन्ति मृगयन्ते मनीषिणः विद्वांसः यस्य शम्भोः पदम् स्थानम् अविद्यमानम् आवृत्तेः पुनः संसारापत्तेः भयम् यत्र तत्तथाभूतम् आहुः
स ते दुहितरम् साक्षात् साक्षी विश्वस्य कर्मणाम् वृणुते वरदशम्भुः अस्मत्सङ्क्रामितैः पदैः
स इति विश्वस्य जगतः कर्मणाम् साक्षी द्रष्टा साक्षाद्द्रष्टरि सञ्ज्ञायाम् इति इनिप्रत्ययः वरान् इष्टान् ददातीति वरदः आतोनुपसर्गे कः इति कप्रत्ययः सः पूर्वोक्तः शम्भुः अस्मत्सङ्क्रामितैः पदैः अस्मासु निवेशितैः वाक्यैः ते दुहितरम् साक्षात् वृणुते अस्मन्मुखेन स्वयमेव याचते इत्यर्थः
तमर्थमिव भारत्या सुतया योक्तुमर्हसि अशोच्या हि पितुः कन्या सद्भर्तृप्रतिपादिता
तमिति तम् शम्भुम् भारत्या वाचा अर्थम् अभिधेयमिव सुतया दुहित्रा योक्तुम् सङ्घटयितुम् अर्हसि अत्र वागर्थयोः उपमानत्वसामर्थ्यात् शिवयोः नित्ययोगः विवक्षितः इत्युक्तम् वागर्थाविवसम्पृक्तौ इत्यत्रापि तथा हि सद्भर्त्रे प्रतिपादिता दत्ता कन्या पितुः अशोच्या
यावन्त्येतानि भूतानि स्थावराणि चराणि च मातरम् कल्पयन्त्वेनाम् ईशो हि जगतः पिता
यावन्तीति स्थावराणि चराणि च यावन्ति एतानि भूतानि सन्तीति शेषः सर्वाणि भूतानि इत्यर्थः एनाम् ते दुहितरम् मातरम् कल्पयन्तु हि यस्मात् ईशः जगतः पिता पितृदारेषु मातृभावः न्याय्यः इति भावः
ప్రణమ్య శితికంఠాయ విబుధాస్తదనంతరం చరణౌ రంజయంత్వస్యాః చూడామణి మరీచిభిః.
ప్రణమ్యేతి విబుధాః దేవాః శితికంఠాయ శివాయ ప్రణమ్య తదనంతరం నీలకంఠ ప్రణామానంతరం అస్యాః చరణౌ చూడామణి మరీచిభిః రంజయంతు. ఈశ్వర పరిగ్రహాత్ అఖిల దేవతావంద్యా భవతు ఇత్యర్థః.
ఉమావధూః భవాన్ దాతా యాచితార ఇమే వయమ్ వరశంభుః అలం హ్యేషః త్వత్కులోద్భూతయే విధిః.
ఉమేతి ఉమా వధూః భవాన్ దాతా ఇమే వయమ్ యాచితారః ప్రార్థకాః శంభుః వరః వోఢా. ఏష విధిః ఏషా సామగ్రీ త్వత్కులస్య ఉద్భూతయే ఉచ్ఛ్రయాయ అలం పర్యాప్తం హి నమస్వస్తి స్వాహా స్వధా ఇత్యాదినా చతుర్థీ.
అస్తోతు స్తూయమానస్య వంద్యస్యానన్యబందినః సుతా సంబంధ విధినా భవ విశ్వగురోర్గురుః.
అస్తోతురితి స్వయం అన్యస్తోతా నభవతీతి అస్తోతుః. కింతు స్తూయమానస్య సర్వస్తుత్యస్య వంద్యస్య జగద్వంద్యస్య స్వయం అన్యం నవందతే ఇతి అనన్యవందినః విశ్వగురోః దేవస్య సుతాసంబంధవిధినా యౌనసంబంధాచరణేన గురుః భవ. యః న అన్యం స్తౌతి నవందతే తస్యాపి త్వం స్తుత్యః వంద్యశ్చేతి అహో తవ భాగ్యవత్తా ఇత్యర్థః.
ఏవం వాదిని దేవర్షౌ పార్శ్వే పితురధోముఖీ లీలాకమలపత్రాణి గణయామాస పార్వతీ.
ఏవమితి దేవర్షౌ అంగిరసి ఏవం వాదిని సతి పార్వతీ పితుః పార్శ్వే అధోముఖీ సతీ లజ్జయా ఇతి శేషః. లీలాకమలపత్రాణి గణయామాస సంచఖ్యౌ లజ్జావశాత్ కమలదలగణనావ్యాజేన హర్షం జుగోప ఇత్యర్థః. అనేన అవహిత్థాఖ్యః సంచారీభావః ఉక్తః. తదుక్తం అవహిత్థాతు లజ్జాదేః హర్షాదాకారగోపనం ఇతి.
శైలః సంపూర్ణకామోపి మేనాముఖముదైక్షత ప్రాయేణ గృహిణీ నేత్రాః కన్యార్థేషు కుటుంబినః.
శైల ఇతి శైలః హిమవాన్ సంపూర్ణకామః అపి దాతుం కృతనిశ్చయోపీత్యర్థః. మేనాముఖం ఉదైక్షత ఉచితోత్తర జిజ్ఞాసయా ఇతి భావః. తథా హి ప్రాయేణ కుటుంబినః గృహస్థాః కన్యార్థేషు కన్యాప్రయోజనేషు గృహిణ్యేవ నేత్రం కార్యజ్ఞానకారణం ఏషాంతే తథోక్తాః. కలత్ర ప్రధానవృత్తయః ఇత్యర్థః.
మేనే మేనాపి తత్సర్వం పత్యుః కార్యమభీప్సితం భవంత్యవ్యభిచారిణ్యః భర్తురిష్టే పతివ్రతాః.
मेन इति मेनापि पत्युः हिमालयस्य तत्सर्वम् अभीप्सितम् कार्यम् मेने अङ्गीचकार तथा हि पतिरेव व्रतम् यासान्ताः भर्तुः इष्टे अभीप्सिते न विद्यते व्यभिचारः यासान्ताः अव्यभिचारिण्यः भवन्ति भर्तृचित्ताभिप्रायज्ञाः भवन्तीति भावः
इदमत्रोत्तरम् न्याय्यम् इति बुद्ध्या विमृश्य सः आददे वचसामन्ते मङ्गलालङ्कृताम् सुताम्
इदमिति सः हिमवान् वचसाम् अन्ते मुनिवाक्यावसाने अत्र मुनिवाक्ये इदम् उत्तरश्लोके वक्ष्यमाणम् दानमेव न्याय्यम् न्यायादनपेतम् उत्तरमिति बुद्ध्या चित्तेन विमृश्य विचिन्त्य मङ्गलम् यथा तथा अलङ्कृताम् मङ्गलालङ्कृताम् सुताम् आददे हस्ताभ्याम् जग्राह
एहि विश्वात्मने वत्से भिक्षासि परिकल्पिता अर्थिनो मुनयः प्राप्तम् गृहमेधिफलम् मया
एहीति हे वत्से पुत्री एहि आगच्छ त्वम् विश्वात्मने शिवाय भिक्षा परिकल्पितासि निश्चितासि रत्नादिस्तम्भपर्यन्तम् सर्वम् भिक्षा तपस्विनः इति वचनादिति भावः अर्थिनः याचितारः मुनयः मया गृहमेधिनः गृहस्थस्य फलम् प्राप्तम् इह परत्र च तारकत्वात् पात्रे कन्यादानम् गार्हस्थ्यस्य फलमित्यर्थः
एतावदुक्त्वा तनयाम् ऋषीणाः महीधरः इयम् नमति वः सर्वान् त्रिलोचनवधूरिति
एतावदिति महीधरः हिमवान् तनयाम् एतावत् पूर्वोक्तम् उक्त्वा ऋषीन् आह किमिति इयम् त्रिलोचनवधूः त्र्यम्बकपत्नी वः सर्वान् नमतीति त्रिलोचनवधूरिति सिद्धवत् अभिधानेन अविप्रतिपन्नम् दानमिति सूचयति
ईप्सितार्थक्रियोदारम् तेऽभिनन्द्य गिरेर्वचः आशीर्भिरेधयामासुः पुरः पाकाभिरम्बिकाम्
ईप्सितार्थेति ते मुनयः ईप्सितार्थक्रियया इष्टार्थकरणेन उदारम् महत् उदारो दातृमहतोः इत्यमरः गिरेः हिमवतः वचः वचनम् अभिनन्द्य साध्विति संस्तुत्य अम्बिकाम् अम्बाम् पच्यते इति पाकः फलम् पुरःपाकाभिः पुरस्कृतपलाभिः आशीर्भिः आशीर्वादैः एधयामासुः संवर्धयामासुः
ताम् प्रणामादरस्रस्त जाम्बूनदवतम् सकाम् अङ्कमारोपयामास लज्जमानाम् अरुन्धती
तामिति प्रणामादरेण नमस्कारासक्त्या स्रस्ते जाम्बूनदे सुवर्णविकारौ वतंसके कनककुण्डले यस्यास्ताम् लज्जमानाम् ताम् अम्बिकाम् अरुन्धती अङ्कम् आरोपयामास रुहःपोन्यतरस्याम् इति पकारः
तन्मातरम् चाश्रुमुखीम् दुहितृस्नेहविक्लवाम् वरस्यानन्यपूर्वस्य विशोकाम् अकरोद्गुणैः
तदिति दुहितृस्नेहेन पुत्रिकाप्रेम्णा विक्लवाम् वियोज्यते इति भीताम् अत एव अश्रूणि मुखे यस्यास्ताम् अश्रुमुखीम् तस्याः अम्बिकायाः मातरम् तन्मातरम् मेनाम् च अन्या पूर्वम् यस्यास्ति सः अन्यपूर्वः सर्वनाम्नो वृत्तिविषये पुंवद्भावः इति पूर्वपदस्य पुंवद्भावः स न भवतीति अनन्यपूर्वः तस्य अनन्यपूर्वस्य सापत्न्यदुःखम् अकुर्वत इत्यर्थः वरस्य वोढुः गुणैः मृत्युञ्जयत्वादिभिः विशोकाम् निर्दुःखाम् अकरोत्
वैवाहिकीम् तिथिम् पृष्टाः तत्क्षणम् हरबन्धुना ते त्र्यः दूर्ध्वमाख्याय चेरुश्चीरपरिग्रहाः
वैवाहिकीमिति चीरपरिग्रहाः वल्कलमात्रवसनाः ते तपस्विनः तत्क्षणम् तस्मिन्नेव क्षणे हरबन्धुना हिमवता वैवाहिकीम् विवाहयोग्याम् तिथिम् पृष्टाः का इति अनुयुक्ताः सन्तः त्रयाणाम् अह्नाम् समाहारः त्र्यहः तद्धितार्थोत्तरपदसमाहारे च इति समासः राजाः सखिभ्यस्तच् इति टच् प्रत्ययः द्विगुत्वात् एकवचनम् रात्राह्नाः पुंसि इति पुंलिङ्गता तस्मात् त्र्यहात् ऊर्ध्वम् उपरि आख्याय चतुर्थे अहने विवाहः इत्युक्त्वा चेरुः चलिताः
ते हिमालयमामन्त्र्य पुनः प्राप्य च शूलिनम् सिद्धम् चास्मै निवेद्यार्थम् तद्विसृष्टाः खमुद्ययुः
त इति ते मुनयः हिमालयम् आमन्त्र्य साधु यामः इत्यापृच्छ्य पुनः शूलिनम् हरम् सङ्केतस्थानस्थम् प्राप्य सिद्धम् निष्पन्नम् अर्थम् प्रयोजनम् अस्मै निवेद्य च ज्ञापयित्वा च तद्विसृष्टाः तेन शूलिना विसृष्टाः खम् आकाशम् प्रति उद्ययुः उत्पेतुः अत्र संक्षिप्तार्थाभिधानात् संक्षेपो नाम गुणः उक्तः तदुक्तम् संक्षिप्तार्थाभिधानम् यत् संक्षेपः परिकीर्तितः इति भगवान् पशुपतिः त्र्यहमात्रविलम्बमपि सोढुम् न शशाक तदौत्सुक्यादित्याः
पशुपतिरपि तान्यहानि कृच्छ्रात् अगमयदद्रिसुता समागमोत्कः कमपरमवशम् न विप्रकुर्युः विभुमपि तम् यदमीस्पृशन्ति भावाः
पशुपतिरिति उत्कम् मनः यस्य सः उत्कः उत्क उन्मनाः इति निपातः अद्रिसुता समागमोत्कः पार्वतीपर्णयोत्सुकः पशुपतिरपि तानि त्रीणीति शेषः अहानि कृच्छ्रात् अगमयत् अयापयत् कविराः अमी भावाः औत्सुक्यादयः सञ्चारिणः अवशम् ఇంద్రియపరతంత్రం అపరం పృథజ్జనం కం న విప్రకుర్యుః న వికారం నయేయుః యత్ యస్మాత్ విభుం సమర్థం జితేంద్రియమితి యావత్ తం స్మరహరమపి స్పృశంతి వికురువంతీత్యర్థః. అత్ర విభువికారసమర్థనాత్ అర్థాత్ ఇతరజనవికారః కైముతికన్యాయాత్ ఆపతతీతి అర్థాపత్తిరలంకారః. తథా చ సూత్రం దండాపూపికయా అర్థాంతరపతనం అర్థాపత్తిః ఇతి అర్థాంతరన్యాస ఇతి కేచిత్ తదుపేక్షణీయం. యుక్తిస్తు విస్తరభయాన్నోచ్యతే పుష్పితాగ్రావృత్తం అయుజిన యుగరేఫతో యకారో యుజిచ నజౌ జరగాశ్చ పుష్పితాగ్రా ఇతి తల్లక్షణాత్. ఇతి శ్రీమన్ మహామహోపాధ్యాయ కోలాచల మల్లినాథ సూరి విరచితయా సంజీవినీ సమాఖ్యయా వ్యాఖ్యయా సమేతః శ్రీకాళిదాసకృతౌ కుమారసంభవే మహాకావ్యే ఉమాప్రదానో నామ షష్ఠః సర్గః.